तत्र चादयो असत्वे इति सूत्रम् अस्माभिः पूर्वं दृष्टम्। चादयो असत्वे इत्यत्र चादयो असत्वे इति सूत्रं प्रथमाध्यायस्य चतुर्थभागे सप्तपञ्चाशत्तमं सूत्रं विद्यते। तत्र ततः पूर्वं कृपया तत् अष्टाध्यायी पुस्तके तत् स्वीकुर्वन्तु। ततः पूर्वम् एकं सूत्रं विद्यते, प्रागीश्वरान् निपाताः, प्राग्रीश्वरान् निपाताः इति सूत्रं विद्यते प्रथमाध्यायस्य चतुर्थपादे। तत्र चादयो असत्वे इति सप्तपञ्चाशत्तमं सूत्रम्। ततः पूर्वं प्रागीश्वरान् प्राग्रीश्वरान् निपाताः इति सूत्रं विद्यते। एतत् प्राग्रीश्वरान् निपाताः इति अधिरीश्वरे पर्यन्तम्, अधिरीश्वरे इति एकं सूत्रं विद्यते। तत् कुत्र अस्ति इति पश्यामः। तस्मिन्नेव पादे सप्तनवतितमं सूत्रम् अधिरीश्वरे इति। एवम् अत्र निपाताधिकारः विद्यते, प्राग्रीश्वरान् निपाताः इति अधिकारसूत्रम्, तत्र निपाताधिकारः विद्यते। एतस्मिन् अधिकारे कृपया क्षम्यताम् एतस्मिन् अधिकारे तत्र निपातसंज्ञा विधीयते। कुत्र कुत्र निपाताः भवन्ति, केषां केषां निपातसंज्ञा भवति इति तत्र उच्यते एतस्मिन् अधिकारे। इदानीं वस्तुतः लघुकौमुद्यां प्राग्रीश्वरान् निपाताः इति सूत्रमेव न उक्तम्। अतः किञ्चित् तत् पठित्वा पुनः चादयोसत्त्वे इति अग्रे पठामः। प्राग्रीश्वरान् निपाताः इत्यत्र पदत्रयं विद्यते, प्राक् ईश्वरात् निपाताः, अधिरीश्वरे। तत् अधिकारसूत्रं विद्यते, किमपि तत्र विशेषः नास्ति। अत्र निपातः इति संज्ञा सर्वत्र अधिक्रियते, अधिरीश्वरे इति पर्यन्तम् अधिक्रियते। एतत् किञ्चित् ज्ञातव्यम्। इदानीं चादयोसत्त्वे इति सूत्रं पुनः पश्यामः। चादयोसत्त्वे इत्यत्र पदद्वयं विद्यते। चादयः इत्यत्र प्रथमाभक्ति बहुवचनं विद्यते, असत्त्वे इत्यत्र सप्तमीभक्ति एकवचनं विद्यते। अत्र विपदात्मकं सूत्रमेतत्। अद्रव्य तत्र अर्थः कथम् उच्यते इत्युक्ते, अद्रव्यार्थाः चादयः निपाताः स्युः। एतत् संज्ञासूत्रम् अस्ति। सूत्रार्थस्य स्पष्टीकरणाय प्राग्रीश्वरान् निपाताः इति अधिकारसूत्रात् निपाताः इति पदस्य अनुवृत्तिः भवति। चादयः इत्यत्र च शब्दः आदिः येषां ते सर्वे चादयः। चादिः इति एकः गणः। असत्त्वम् इत्युक्ते न सत्त्वम् असत्त्वम्। असत्त्वे असत्त्वं नाम अद्रव्यार्थे, अद्रव्यार्थाः चादयः निपाताः स्युः। इदानीं चादयः नाम गणः, कश्चित् गणः। पूर्वस्यां कक्षायां मया एतद् न उक्तम्, एतद् गणे के के शब्दाः भवन्ति इति न उक्तम्। तत्र मया किञ्चित् कष्टेन गणपाठं दृष्ट्वा चादयः इत्यत्र कति शब्दाः सन्ति इति मया सङ्गृहीतम्। तत्र चादयः इति एकः गणः, आदौ गणपाठः ततः सूत्रपाठः इति पाणिनेः नियमः। इदानीं चादयः अत्र पश्यन्तु, रक्तवर्णे शुकं पशु इति पदद्वयं निर्दिष्टम्। चादिः इति यः गणः अस्ति तत्र पशुः, शुकम् इत्यादि शब्दाः अपि भवन्ति। एते शब्दाः यदि द्रव्यार्थं सूचयन्ति तदा तेषां निपात संज्ञा न भवति। द्रव्यार्थं नाम लिंग संख्यान्वितं द्रव्यम्। इदानीं पशुं नयन्ति इत्युक्ते प्राण विशेषं नयन्ति इति यदि अर्थः संभवति चेत् तद् निपात संज्ञा न भवति। पुष्टं पशु मन्यते सम्यक् इत्यर्थः। अत्र सम्यक् इति अर्थे पशुशब्दः यदा प्रयुज्यते तदा तस्य निपातसंज्ञा भवति, तस्य निपातसंज्ञा भवति। अत्र एवमेव शुकं गच्छति, शुकम् इत्यत्र शीघ्रम् इत्यपि अर्थः, शुकम् इत्यत्र पक्षिविशेषम् इत्यर्थः। इदानीं पक्षिविशेषं शुकं पश्य इत्यत्र यदि पक्षिविशेषः अर्थः स्वीक्रियते तदा निपातसंज्ञा न भवति, यतोहि अद्रव्यार्थाः एव छादयः निपातसंज्ञाः भवन्ति। एवं शुकं गच्छति इत्यत्रापि एवमेव। इदानीं किमर्थम् एतदुक्तम् इत्युक्ते चादयोसत्त्वे इत्यत्र इदानीं अद्रव्यार्थाः चादयः निपातसंज्ञाः स्युः, निपातसंज्ञा अनेन विधीयते। इदानीं प्रादयः इति एकं सूत्रं विद्यते। इदानीं तत्रैव प्रथमाध्यायस्य चतुर्थपादे अग्रिमं सूत्रं विद्यते प्रादयः इति। इदानीं प्रादयः के के प्रादयः? प्रादयः इत्यत्र एकमेव पदं प्र आदयः इति सन्धिच्छेदः। तत्र प्रादयः इत्यत्र के के इत्युक्ते प्रपर अपसमन्वय तद् अस्माभिः उपसर्गाक्रियायोगे इति सूत्रव्याख्यानसमये अस्माभिः बहु समीचीनम् उपसर्गाः एव प्रादयः। इदानीं द्वाविंशति प्रादयः सन्ति। एतेषाम् इदानीम् अत्र क्रियायोगे एतेषाम् उपसर्गाः इति संज्ञापि विधीयते, प्रादयः इति संज्ञापि विधीयते। तत् प्रादयः नाम एते प्रादयः इति तेषां नाम, क्षम्यताम्, तत्र निपातसंज्ञापि विधीयते उपसर्गसंज्ञापि एतेषां सन्ति। तस्य कारणं किमपि अस्ति, कदाचित् निपातसंज्ञा आवश्यकं, कदाचित् एतेषाम् उपसर्गसंज्ञा क्रियायोगे एतेषाम् उपसर्गसंज्ञा आवश्यकं भवति। इदानीं प्रादयः द्वाविंशति सन्ति, एवं एतेषां प्रादीनां निपातसंज्ञापि अस्ति उपसर्गसंज्ञापि अस्ति, तदेव अस्माभिः ज्ञातव्यम्। असत्त्वे इदानीम् असत्त्वे इति अनुवर्तते, अद्रव्यार्थाः इत्युक्ते द्रव्य लिङ्गसङ्ख्यान्वितं न भवेत्, अद्रव्यार्थाः प्रादयः निपातसंज्ञाः स्युः इति सूत्रार्थः। तत्र लघुकौमुद्यां तु एतेऽपि तथा इति उक्तम्। तद् एतेऽपि तथा नाम पूर्वस्मिन् सूत्रवत् इत्यर्थः। एतेऽपि तथा इति उक्तं मूले। सो एतेऽपि तथा नाम एते अपि अद्रव्यार्थाः यदि भवन्ति ते निपातसंज्ञाः भवन्ति। इदानीं प्रादीनां मध्ये तत्र प्रत्युदाहरणं किमपि विद्यते वा? किमर्थम् अद्रव्यार्थाः इति उच्यन्ते? किमपि पर अप इति एतेषां द्रव्यार्थं सम्भवति वा इति प्रश्नः उदेति। अत्र प्रापर समन्वयनिर्निसौ दुर्वि इति अस्ति। इदानीं वि इति विहि इदानीं वि इति पदम् इदानीं वि इति पदस्य अर्थः पक्षी इत्यपि भवति। तत्र विहि विहि नाम पक्षिः इत्यर्थः। इदानीं पक्षिः इति अर्थश्चेत् तत्र किं भवति पक्षी अर्थे स्वीकृते अस्य द्रव्यार्थम् आगतम् यदि द्रव्यार्थः भवति चेत् निपातसंज्ञा न भवति यदि अद्रव्यार्थः भवति चेत् तस्य निपातसंज्ञा अस्ति अत्र अंशद्वयम् अस्माभिः ज्ञातव्यम् प्रादीनाम् उपसर्गाक्रियायोगे इति सूत्रेण क्रियायोगे उपसर्गसंज्ञा अस्ति एतेषां प्रादीनामेव निपातसंज्ञा अपि अस्ति तत्र पृथक् पृथक्तया तेषां संज्ञा आवश्यकम् कदाचित् क्रियायोगाभावे एतेषां निपातसंज्ञा आवश्यकम् कदाचित् क्रियायोगे अपि निपातसंज्ञा उपसर्गसंज्ञा आवश्यकं भवति तत्र अग्रे गच्छामः एवं विहि इति पदस्य कदाचित् पक्षी इति अर्थे स्वीकृते पक्षी गच्छति इति स्वीकृते निपातसंज्ञा न भवति इति अत्र उच्यते इदानीम् एकं प्रमुखं सूत्रं विद्यते निपात एकाजनान् इति सूत्रम् निपात एकाजनान् इति सूत्रम् अत्र पदत्रयं विद्यते निपातः एकाजनान् इति निपातः इत्यत्र प्रथमाभक्ति एकवचनम् मया तत्र स्लैड् मध्ये विभक्तिः न निर्दिष्टः कृपया क्षम्यताम् तद् सुलभेन ज्ञातुं शक्यते एकाज् इत्यत्रापि प्रथमाभक्ति एकवचनम् अनाङ् इत्यत्रापि प्रथमाभक्ति एकवचनम् सो एतत् संज्ञासूत्रं विद्यते संज्ञा किं कः संज्ञा विधीयते प्रगृह्यसंज्ञा विधीयते प्रगृह्यसंज्ञा विधीयते इदानीं कुत्र अस्ति एतत् सूत्रं प्रथमाध्यायस्य प्रथमपादे चतुर्दशतमं सूत्रं संज्ञासूत्रमेतत् इदानीम् अत्र किं वदति निपात एकाजनात् यदि निपातः अस्ति एकाच् अस्ति आङ्वर्जः 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 नाम आङ् विहाय प्रगृह्यः भवति इदानीम् अत्र किञ्चित् सम्यग्रीत्या एतत् ज्ञातव्यं भवति अत्र निर्दिष्टं विद्यते निपातः एकाच् अनान् प्रगृह्यः इदानीम् ईदूरे द्वेसरं प्रगृह्यम् इत्यस्मात् एव प्रगृह्यः इति आगच्छति अत्र समासः कथं भवति एकश्च असौ अच्च इति कर्मधारय समासः इत्युक्ते एकाच् भवेत् एकः भवेत् एकाच्च भवेत् अच्च भवेत् एकः एव अक्षरः वर्णः भवेत् सः अचपि भवेत् तदा एव तादृश अक्षरस्य प्रगृह्यसंज्ञा भवति निपातः भवेत् एकः एव अक्षरः भवेत् सः इदानीं कर्मधारे समासः यदा क्रियते एकश्च असौ अच्च एकः असौ अच् एकः भवति अच् एकः अच् अस्ति सः एकाकी तिष्ठति तादृश अचः तादृश अचः प्रगृह्यसंज्ञा विधीयते निपातः प्रगृह्यसंज्ञा विधीयते इदानीम् उदाहरणं प्रथमं पश्यामः अनन्तरम् अनाङ् इति पदस्य अर्थविवरणार्थम् अनन्तरम् आगच्छामः प्रथमम् एकम् उदाहरणं पश्यामः इ इन्द्रः इदानीम् इ इति शब्दः इ इन्द्रः विस्मयार्थे उपयुज्यते ओ विस्मयार्थे तदा कदाचित् नाटके वा रूपके वा उपयुज्यते इ इन्द्रः इति उदाहरणम् ఇదానీం అత్ర ఈ ఉ ఉమేశః ఇతి అస్తి. ఓ ఉమేశః ఇతర తత్ర అన్యాసు భాషాసు అపి ఏతద్ భవతి. ఓ నింగలా ఇతి తమిళ భాషాయాం వయం వదామశ్చేత్ ఓ ఉ ఇతి ఇత్యాది తత్ర వదామః. ఏమేవ ఉ ఉమేశః ఈ ఇంద్రః ఇతి భవతి. ఇదానీం ఇకారస్య ఉకారస్య చాదయో అసత్వే ఇతి చాదిగణే ఉకారః ఇకారః అస్తి. చాదయః ఇదానీం చాదిగణే వయం చాదిగణే పశ్యామః. ఉకారః ఇకారః ఏతత్ సర్వం అత్ర చాదిగణే ఇకారః ఉకారః అస్తి. చాదిగణే ఏతే సంతి అద్రవ్యార్థాః సంతి అతః ఏతేషాం కిం ఆగతం నిపాత సంజ్ఞా ఆగత. చాదయో సత్వే ఇతి సూత్రేణ ఏతేషాం నిపాత సంజ్ఞా ఆగత. ఇదానీం నిపాత ఏకా జనాన్నితి ప్రకృత సూత్రం కిం క్రీకరోతి తర్హి. యది నిపాతః అస్తి ఏకాచ్ అస్తి అనాంగ్ ఆంగ్ న భవేత్ తస్య సు తస్య ఏకాచ్ వర్ణస్య ప్రగృహ్య సంజ్ఞా భవతి. అస్మాభిః పూర్వమేవ జ్ఞాతం పూర్వస్యాం కక్షాయాం జ్ఞాతం ప్రగృహ్య సంజ్ఞాయాః ప్రయోజనం కిం. ప్లుత ప్రగృహ్య అతినిత్యం ఇతి సూత్రం అస్మాభిః దృష్టం. యది ప్రగృహ్య సంజ్ఞా భవతి తర్హి ఏతేషాం కిం భవతి ప్రకృతిభావః భవతి. ప్రకృతిభావః యది భవతి చేత్ సంధిః న భవతి. ఈ ఇంద్రః ఇత్యత్ర సవర్ణదీర్ఘ సంధిః సవర్ణదీర్ఘ సంధౌ ప్రాప్తే ఈంద్రః ఇతి న భవతి. యతో హి ఏకాచ్ నిపాత వర్ణః ఇకారః ఉకారః అపి ఏకాచ్ నిపాత వర్ణః. అతః ప్రకృతిభావత్వాత్ సంధి నిషేధః ఇతి జ్ఞాతుం శక్యతే. అవగతం వా? నిపాత సంజ్ఞాయాః అర్థం కిం? నిపాత సంజ్ఞా నామ తేషాం నిపాత సంజ్ఞా. నిపాత సంజ్ఞా మీ నిపాత ఇది కాశ్చిత్ నామ అస్తి. నిపాత ఇది ఇదానీం పార్టికల్ ఇది ఆంగ్ల భాషాయాం వదామః. నిపాత ఈ ఇది నిపాత సంజ్ఞా అస్తి. తస్య ఈ ఇత్యస్య స్వయమేవ అర్థః నాస్తి. కదాచిత్ ఈ ఇంద్రః ఇతి ఉపయోగ్యతే చేత్ తదా ఇకారస్య విస్మయార్థః సంభవతి. ఉ ఉమేశః ఇతి ఉమేశ ఏవం ఉపయోగ్యతే చేత్ కదాచిత్ ఉకారస్య కిమపి అర్థః ఆగచ్చతి. ఏవం ఏతాదృశాః వర్ణాః నిపాతాః ఇతి భవంతి. తత్ర అవ్యయకోశే తత్ర నిర్దిష్టం అవ్యయకోశ ఇతి సంస్కృత శ్రీః మెడ్రాస్ ఎడ్యుకేషన్ సొసైటీ ద్వారా ప్రకాశితం ఏకం పుస్తకం విద్యతే. తత్ర నిపాతః ఇత్యస్య అర్థః మయా పూర్వమపి ఉక్తం. నియమేన స్వార్థం అన్యేషాం పాతయిష్యంతి ఇతి నిపాతాః ఇతి విప్పత్తిః దర్శితః అవ్యయకోశే. అతః ఇదానీం నియమేన ఇత్యుక్తే తేషాం కించిత్ స్వార్థం న భవతి. యదా అన్య పదస్య సహాయేన తేషాం కించిద్ అర్థః భవతి. తథైవ అత్ర ఇకారః ఉకారః అపి. ఇదానీం జ్ఞాతం వా భగిని మీనాక్షి భగిని? అవగతం. అస్తు. హా ఏవం ఈ ఇంద్రః ఉ ఉమేశః ఇత్యత్ర ఇకారస్య ఉకారస్య కిం కిం సూత్రేణ కిం కిం భవతి ఇతి అస్మాభిః కేన కేన క్షమ్యతాం కేన కేన సూత్రేణ కిం కిం భవతి ఇతి అస్మాభిః సమ్యక్ జ్ఞాతవ్యం. చాదయో సత్వే ఇతి సూత్రేణ నిపాత సంజ్ఞా. నిపాత ఏకాజనాన్ ఇతి ప్రకృత సూత్రేణ ప్రగృహ్య సంజ్ఞా. కృత ప్రగృహ్య అతినిత్యం ఇతి సూత్రేణ ప్రకృతిభావః. అతః సంధి నిషేధః ఈ ఇంద్రః ఇత్యత్ర సంధి నిషేధః. ఏవం క్రమేణ జ్ఞాతవ్యం. ఇదానీం యది సమ్యక్ రీత్యా అవగతం చేత్ అనాంగ్ ఇత్యత్ర ఆగచ్చామః. తత్ర అత్ర కిం ఉక్తం? ఏకాచ్ భవేత్ నిపాతః భవేత్ ప్రగృహ్యః భవేత్ తత్ర ఆంగ్ వర్జితం భవేత్ ఇది. ఆంగ్ నామ కిం? तद्विषये आगच्छामः तत्र बहुव्रीहि कृतौ इदानीं बहुव्रीहि समासे कृते एका जनान् इत्यत्र एकः अच् यस्मिन् इति एकाच् इति यदि कृते तदा किं भवति चकारः अस्ति इदानीं च अस्ति इति उदाहरणं स्वीक्रियताम् च अस्ति इति उदाहरणे चकारे अकारसहिते चकारे किं भवति तत्र अच् अपि अस्ति हल् अपि अस्ति अतः एकः अच् यस्मिन् स एकाच् इति एकः अच् यस्मिन् स एकाच् इति बहुव्रीहि समासे कृते किं भवति इत्युक्ते चकारे अपि अकारः अस्ति अच् अस्ति अतः च अस्ति इत्यत्र चास्ति इति सवर्णदीर्घसन्देहे निषेधः स्यात् अतः एकाच् इत्यत्र बहुव्रीहि समासः न करणीयः एकः च असौ अच् इति एव कर्मधारयसमासः करणीयः एषः विषयः सम्यक् ज्ञातः वा अत्र एकाच् इत्यत्र कर्मधारयसमासः एव करणीयः न तु बहुव्रीहि समासः इति सम्यक् ज्ञातः वा अस्तु केचन न ज्ञातवन्तः इति मन्ये पुनः वक्ष्यामि अत्र चकारः अस्ति चकारः चकारे स्वरः अस्ति किल अकारः इदानीं च अ च इति भवति इदानीं च प्लस् अस्ति इत्यत्र सन्धिः भवति वा न वा चास्ति इति वयं सर्वत्र पश्यामः सवर्णदीर्घसन्धिः भवति इदानीम् अत्र निपात एका जनान् इत्यत्र यदि एकाच् इत्यत्र एकः अच् यस्मिन् स एकाच् इति बहुव्रीहि समासं स्वीकुर्मश्चेत् इदानीं चकारे एकः अच् अस्ति एकः अच् यस्मिन् या यस्मिन् इन् दट् वेर् देर् इस् वन् अच् इत्युक्ते इन् चकार देर् इस् वन् अच् अतः चकारस्य किं स्यात् निपातसंज्ञः प्रगृह्यसंज्ञः स्यात् प्रगृह्यसंज्ञा यदि भवति चेत् तस्य प्रकृतिभावः भवति प्रकृतिभावः यदि भवति चेत् सवर्णदीर्घसन्धेः प्रसक्तिः न भवति अत्र अतः दोषः भवति अतः निपात एका जनान् इत्यत्र एकाच् इत्यत्र समासः एकः च असौ अच् अच् भवेत् एकः भवेत् तादृशकर्मधारयसमासं यदि स्वीकुर्मः तदा किं भवति अत्र च अस्ति इत्यत्र दोषः न सम्भवति तत्र प्रकृतिभावः नागच्छति इदानीम् अवगतं वा विद्याभगिनी अस्तु 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 इदानीम् अनान् विषये पश्यामः अनान् इति अस्ति न आङ् अनाङ् तत्तु सर्वैः ज्ञायते इदानीम् अनाङ् इत्यत्र अत्र किम् अत्र समस्या एका विद्यते चादिगणे आ इति एकः आकारः पठितः प्रादिगणे आङ् इति निपातः अस्ति एवं निपातद्वयं विद्यते आ आङ् इति इदानीम् आ इत्ययं निपातः एवम् अङित् अपि अस्ति अङित् अपि अस्ति अङित् नाम आङित् नकारः इत् विना अङित् केवलम् आकारः ङित् नाम आङ् इति अस्ति एवम् आकारद्वयमस्ति प्रयोगे तु उभौ अपि आ एव इदानीं व्यवस्था कथम् अनाङ् इत्युक्ते यत्र यत्र अनाङ् इत्युक्ते अङित् आकारः प्रगृह्यः अस्ति इति स्वीक्रियते అనాంగిత్యత్ర అంగితాకారః ప్రగృహ్యః. అంగితాకార విషయే అంగిత్ ఇత్యుక్తే నిత్రహిత ఆకారః ఏవ ప్రగృహ్యః. ఇదానీం నిత్ యది అస్తి సహ తు న ప్రగృహ్యః ఇతి. ఏవం ఆకారద్వయం విద్యతే, నిద్రహిత ఆకారం, నిత్ సహిత ఆకారం. అంగిత్ అంగిత్ ఇతి నిద్రహితే సతి తస్య ప్రగృహ్య సంజ్ఞా భవతి. నిత్ ఇత్యత్ర న ప్రగృహ్య సంజ్ఞా ఇతి వివేకః. ఇదానీం తత్ర ఏకా కారికా విద్యతే ఈషదర్థే క్రియాయోగే మర్యాదాభివిధౌ చయః ఏతం ఆతం నితం విద్యాత్ వాక్యస్మరణయోరంగిత్ ఇతి కారికా విద్యతే. అత్ర మహాభాష్యే ప్రాయః ఏషా కారికా విద్యతే, మహాభాష్యే ఏవ విద్యతే. ఈషదర్థే క్రియాయోగే, యదా ఈషదర్థే వయం ఆకారం ప్రయుంజామః. ఇదానీం ఈషద్ ఉష్ణం ఇతి జలస్య విషయే కించిత్ యది వక్ష్యామః తదా ఆ ఉష్ణం ఇతి యదా ప్రయోగః క్రియతే. ఈషద్ ఇతి అర్థే ఆ ఇతి నిపాతః యదా ప్రయుజ్యతే ఆ ఉష్ణం ఇతి, తదా నిపాతసంజ్ఞా న భవతి. యది నిపాతసంజ్ఞా న భవతి తర్హి ప్రగృహ్యసంజ్ఞా అపి న భవతి. యది ప్రగృహ్యసంజ్ఞా న భవతి తర్హి ప్రకృతిభావః న భవతి. యది ప్రకృతిభావః న భవతి తర్హి సంధిః భవతి ఇత్యర్థః. ఏవం ఈషదుష్ణం ఇతి అర్థే ఆ ఉష్ణం ఇతి ప్రయోగే ఇతి వాక్యప్రయోగే ఓష్ణం ఆ ప్లస్ ఉ తత్ర గుణసందేహ ప్రసక్తిః అస్తి. ఓష్ణం ఇది రూపం సిద్ధ్యతి. క్రియాయోగే కదాచిత్ ఆ అగచ్చత్ ఇతి ఆకారస్య లంగ్లకారే అగచ్చత్ ఇతి ఆ ఉపసర్గే స్వీకృతే చేత్ తదా ఆగచ్చత్ ఇతి సవర్ణదీర్ఘసంధిః భవతి. యతో హి ఆ ఇత్యత్ర నిపాతసంజ్ఞా నాస్తి. ఏవం మర్యాద అభివిద్యర్థే ఏవం పర్యంతం అభివిద్ధి, మర్యాద నామ సీమా ఇతి అస్తి. యదా సీమా అభివిద్యర్థే సీమా అంత పర్యంతం అస్తి ఆ ఆ అంతం ఆంతం ఇతి యదా అస్తి తదా కిం భవతి తత్రాపి నిపాతసంజ్ఞా న భవతి. ఏవం సంధిః సవర్ణదీర్ఘసంధిః భవతి. పరంతు యదా వాక్యస్మరణయోరంగిత్, ఇదానీం తత్ర కారికాయాః అర్థం వయం పశ్యామశ్చేత్ ఈషదర్థే క్రియాయోగే, ఈషదర్థే క్రియాయోగే మర్యాదాభివితౌ చయః ఏతం మాతం నితం విద్యాత్. ఏతం మాతం నిత్, యది నిత్ అస్తి చేత్, యది నిత్ అస్తి చేత్ సహ న ప్రగృహ్యః, యది అనిత్ అస్తి చేత్ సహ ప్రగృహ్యః ఇతి వివేకః. వాక్యస్మరణయోరంగిత్, నీత్ కుత్ర అనీత్ కుత్ర ఇత్యేవ జ్ఞాతవ్యం అస్మాభిః ప్రయోగే. నీత్ యత్ర అస్తి తత్ర నీత్ యత్ర అస్తి తత్ర న ప్రగృహ్యః, యత్ర అనీత్ అస్తి తత్ర ప్రగృహ్యః. వాక్యస్మరణయోర్ అనీత్, ఇదానీం వాక్యే ఆ ఏవం ను మన్యసే, ఆ ఏవం స్మరణార్థే ఆ ఏవం కిల తత్ ఇది వాక్యే కిం భవతి ఆ ఇది అత్ర వాక్యే కదాచిత్ ఆగచ్చతి స్మరణార్థే ఆగచ్చతి చేత్ తస్య అనిత్వం అస్తి. అనిత్తత్వాత్ తస్య నిపాతసంజ్ఞా అస్తి. నిపాతసంజ్ఞా అస్తి ఇతి కారణతః ఆ ఏవం ఇత్యత్ర వృద్ధిసంధిః వా ఆ ఏవం అత్ర స్మరణార్థే అపి అస్మిన్ వాక్యే వృద్ధిసంధిః న భవతి. ఏవం అస్మాభిః ఏతత్ కారికాయాః సహాయేన ఆంగ్ ఇత్యత్ర ఆకారస్య నిత్రహితం ప్రయోగః వా నిత్సహితం ప్రయోగః వా వాక్యే వా తత్ర ఇతి వయం జ్ఞాతుం శక్యతే. పునః పశ్యామః ఈషదర్థే క్రియాయోగే మర్యాదాభివిధౌ చయః ఏతమాతం నితం విద్యాత్ వాక్యస్మరణయోరంగిత్ ఇతి కారికాయాః సహాయేన వాక్యస్మరణార్థే ఏవ అంగిత్ భవతి तदा एव निपात संज्ञा भवति अन्यत्र सर्वं निपात संज्ञा न भवति संधिः भवति इति अर्थः सम्यक् अवगतं वा तत्र सर्वेषु अत्र अस्माकं गृहे अद्य महान्तः वैयाकरणः गोपालकृष्णमहोदयः
तादृश सम्पूर्णमहान्तः नास्ति किन्तु वैयाकरणाः
वैयाकरणाः आगताः अस्माकं गृहं प्रति अद्य ते अद्य बहु आनन्दम् अनुभवन्ति भवतां सर्वेषां छात्राणां श्रद्धां दृष्ट्वा अत्र रात्रौ भवन्तः पाठार्थम् आगच्छन्ति इति ते दृष्ट्वा बहु आनन्दम् अनुभवन्ति ते चेन्नैनगरस्थाः पूर्वं वैयाकरणाः आसन् अहोबिलमठे ते इदानीं कक्षा कथं प्रचलति इति द्रष्टुं ते अस्माकं गृहं प्रति रामायणपारायणार्थम् अन्यत्र अस्मिन् नगरे रामायणपारायणमस्ति तदर्थं ते आगताः इदानीं ते दृष्ट्वा एतत् सर्वं टेक्नालजि द्वारा शास्त्रप्रचारः कर्तुं शक्यते इति ते दृष्ट्वा अति आनन्दम् अनुभवन्तः सन्ति नमो नमः महोदय इति सर्वे भवतां कृते नमस्काराः
आशीर्वादाः सर्वे 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 छात्राः भवन्तः सर्वे अतीव पुण्यवन्तः यतोहि एतादृश महापुरुषाणां सम्मुखे एतादृश व्याकरणशास्त्र अध्ययनकरणम् अतीव सौभाग्यवशात् लभ्यते तत्तु भवतां कृते भगवता दत्तं तत्तु पदे पदे अभिवृद्धिं प्राप्य महावैयाकरणाः भवन्तु इति अहम् आशासे धन्यवादः
एकनिमिषं ते किञ्चित् वक्तुम् इच्छन्ति ते इत्युक्ते ते किञ्चित् अस्माकं कार्यविषये तत्र व्याकरणाध्ययनाध्यापनविषये भवतां विषये किञ्चित् आशीर्वादं दत्तवन्तः इति स्वीकुर्मः इदानीं निपात एका जनान् अग्रिम एतत् किञ्चित् आङ् विषये किञ्चित् ज्ञातं वा अङित् आङ् ङित् सहित आङ् इति इत्येतद्वयं विद्यते प्रयोगे तत्र क्लेशः कुत्र इति वयं पश्यामश्चेत् उभयत्रापि आङ् ङित्रहितप्रयोगः एव इदानीम् आ एवं नु मन्यसे इति ङित्वा ङित्वा इति कथं ज्ञायते तत्र यदि एषा कारिका नास्ति चेत् एवं ज्ञातव्यम् इति महाभाष्यकाराणां किञ्चित् अनुग्रहः नास्ति चेत् कुत्र ङित्सहितप्रयोगः कुत्र अङित्सहितप्रयोगः इति कथं ज्ञायते न तु क्लेशः एव अतः वाक्ये स्मरणार्थे च अङ्गिताकारः प्रगृह्यः भवति यदा एकाच् भवति तदा ङित् भवति तदा प्रगृह्यः वा प्रकृतिभावः वा न भवति इति स्मर्तव्यम् इदानीम् ओत् अग्रिमसूत्रं पश्यामः ओत् इति अत्र इदानीं प्राग्रीश्वरान् निपाताः चादयोसत्वे प्रादयः निपात एकाजना तत्र निपात एकाजनाङ्गिति प्रथमाध्यायस्य प्रथमपादे विद्यते निपात एकाजनाङ्गिति संज्ञासूत्रम् अनेन एकाच् एकाच् इत्युक्ते तत्र ई इन्द्रः उ उमेशः इत्यत्र यत्र यत्र एकाच् अस्ति తత్ర ప్రగృహ్య సంజ్ఞా అనేన విధీయతే. నిపాత సంజ్ఞా తు చాదయో సత్వే ఇతి సూత్రేణ విధీయతే. తదేకం స్మర్తవ్యం, కదాచిత్ భ్రమ భవతి. నిపాత ఏకా జనాంగితి సూత్రేణ కహ సంజ్ఞా విధీయత్, కా సంజ్ఞా విధీయతే, నిపాత సంజ్ఞా వా ప్రగృహ్య సంజ్ఞా వా ఇతి. నిపాత ఏకా జనాంగితి సూత్రేణ ప్రగృహ్య సంజ్ఞా ఏవ విధీయతే, చాదయో సత్వే ఇతి సూత్రేణ నిపాత సంజ్ఞా విధీయతే. కదాచిత్ ప్రశ్న పత్రికాయాం ఏషః ప్రశ్నః అవశ్యం ఆగచ్చతి. నిపాత ఏకా జనాంగితి సూత్రేణ కా సంజ్ఞా విధీయతే, ప్రగృహ్య సంజ్ఞా వా నిపాత సంజ్ఞా వా ఇతి. తత్ర నిపాతః ఇతి శబ్దః అస్తి, సర్వే భ్రమరహితాః భవంతి, నిపాత సంజ్ఞా భవతి ఇతి సర్వే జటితి లిఖంతి, ఛాత్రాః తత్ర ప్రమాదం కుర్వంతి. తత్ అస్మాభిః న కరణీయం. చాదయో సత్వే ఇతి సూత్రేణ నిపాత సంజ్ఞా, నిపాత ఏకా జనాం సూత్రేణ ప్రగృహ్య సంజ్ఞా, కృత ప్రగృహ్యాచినిత్యం ఇత్యనేన ప్రకృతిభావః. ఏవం ఇదానీం ఓత్ ఇతి సూత్రం ప్రతి గచ్చామః. ఇదానీం ఓదంతః నిపాతః. ఓత్ ఇత్యత్ర ఓత్ ఇత్యః నామ ఓదంతః ఇతి. ఏతత్ సూత్రం కుత్ర విద్యతే? ప్రథమాధ్యాయస్య ప్రథమపాదే పంచదశతమం సూత్రం విద్యతే. ఓదంతః నిపాతః ప్రగృహ్య సంజ్ఞా భవతి. ఓదంతః నిపాతః నామ కిం? అత్ర ఓదంతః అత్ర అనువృత్తిః ప్రగృహ్యం ఇతి అనువర్తతే. అత్రాపి అద్రవ్యవాసిత్వా తత్ర కిం భవతి ఇత్యుక్తే ఓదంతః నిపాతః ప్రగృహ్యః స్యాత్. అనేన సూత్రేణాపి ప్రగృహ్య సంజ్ఞా విధీయతే. ఇదానీం అహో ఇతి అస్తి, అహో ఈశాః ఇతి ఉదాహరణమస్తి. అత్ర ప్రథమమస్మాభిః కిం కర్తవ్యం? ద్రవ్యవాచిత్వం అస్తి వా నాస్తి వా ఇతి ద్రష్టవ్యం. అత్ర అద్రవ్యవాచిత్వం అస్తి, అహో ఇతి అద్రవ్యవాచిత్వం అస్తి, అతః చాదయో సత్వే ఇతి సూత్రేణ నిపాత సంజ్ఞా విధీయతే. అత ఏవ మయా కిం కృతం? చాదీనాం తత్ర చాదీనాం పట్టికాకృత చాదిగణ చాదిగణే కేకే శబ్దాః భవంతి ఇది. ఇదానీం అహో ఇతి, అహో స్విత్, అహో ఇత్యపి అస్తి. అత్ర కుత్ర అస్తి ఆహో ఉతాహో అహో ఇత్యపి అస్తి. హో అహో ఏతే శబ్దాః అపి చాదిగణే పఠితాః శబ్దాః. అతః ఇదానీం చాదయో సత్వే ఇతి సూత్రేణ కిం ఆగతం అస్య? అహో ఇత్యస్య చాదయో సత్వే ఇతి నిపాత సంజ్ఞా ఆగత. నిపాత సంజ్ఞానంతరం ఓతితి సూత్రేణ ప్రగృహ్య సంజ్ఞా భవతి. ఇదానీం ప్రశ్నః భవతి, ఓత్ ఇత్యత్ర కిం ఏక నిపాత ఏకా జనాన్నిత్యనేనేవ కర్తుం శక్యతే ఇతి. తత్ర ఏకాచేవ భవేత్. అత్ర అహో ఇతి పదం, అతః పృథక్ సూత్రం కరణీయం ఆపతితం పాణినేః. ఇదానీం ఓతితి సూత్రేణ ప్రగృహ్య సంజ్ఞా, కృత ప్రగృహ్య అచినిత్యం ఇతి సూత్రేణ ప్రకృతిభావః. అతః అహో ఈశాః ఇత్యత్ర సంధిః నాస్తి. ఓకారస్య ఈకారస్య కిమపి వాంతాదేశసంధి వా కిమపి పూర్వరూప వా పర పూర్వరూపం నాస్తి, వాంతాదేశసంధిః నాస్తి. ఏమేవ అథో నో ఆహో ఉతాహో ఇత్యాదీనామపి తత్ర ఓకారాంతత్వం నిపాత సంజ్ఞా చాదయో సత్వే సూత్రేణ భవతి. ఓతితి సూత్రేణ ఓదంతః నిపాతః అభవత్, తదనంతరం ఓదంతః నిపాతః అభవత్. ఏతే శబ్దాః ఓదంత నిపాతత్వాత్ ఏతేషాం ప్రగృహ్య సంజ్ఞా పునః ఆగతః. కేన సూత్రేణ? ఓతితి సూత్రేణ. తదనంతరం ప్రగృహ్య సంజ్ఞా కృత ప్రగృహ్యాచినిత్యం ఇత్యనేన ప్రకృతిభావః. ప్రకృతిభావత్వాత్ సంధి నిషేధః. ఏతద్ జ్ఞాతవ్యం. సులభమస్తి, కించిత్ క్రమం సర్వం దృష్ట్వా సమ్యక్ జ్ఞాతవ్యం. ఇదానీం అగ్రిమసూత్రం విద్యతే. సంబుద్ధౌ శాకల్యస్యేతావనార్షే ఇతి. అత్ర సంబుద్ధౌ, అత్ర చత్వారి పదాని సంతి. సంబుద్ధౌ సప్తవిభక్తి ఏకవచనం, శాకల్యస్య షష్ఠీవిభక్తి ఏకవచనం, ఇతౌ इति शब्दस्य इतौ सप्तमी एकवचनम् अनार्षे इति सप्तविभक्ति एकवचनम् इदानीम् अत्र इदेतदपि प्रथमाध्यायस्य प्रथमपादस्य षोडशतमं सूत्रं संज्ञासूत्रं विद्यते अनेन प्रगृह्यसंज्ञा विधीयते इदानीं सम्बुद्धौ शाकल्यस्य एतावनार्षे इदानीं सम्बुद्धिनिमित्तकः ओकारः सम्बुद्धिः नाम किं तद् अस्माभिः ज्ञातव्यं भवति सम्बुद्धिः नाम सम्बोधनं यत्र भवति सम्बोधनप्रथमाभक्तिः तत्र सम्बोधनप्रथमाभक्तिः विष्णो हरे हे हरे इत्यादि शब्दाः भवन्ति किल तत्र यत्र यत्र एकवचनं सम्बुद्धिः इति सूत्रम् अजन्तपुल्लिङ्गप्रकरणे अनन्तरम् आगच्छति हे राम इति प्रक्रिया दशायां प्रक्रियायाः अध्ययनसमये तत्र सम्बुद्धिविषयकसूत्रमागच्छति इदानीं सम्बुद्धौ सम्बुद्धिः नाम किं सम्बोधनप्रथमाविभक्तेः सम्बुद्धिः इति नाम सम्बुद्धौ यदा सम्बुद्धिः इत्युक्ते सम्बोधनप्रथमाविभक्तिः स्यात् तदा ओकारः यदि भवेत् इदानीम् उकारान्तशब्दस्य विष्णो विष्णु इति शब्दस्य विष्णो इति ओकारान्तः यदि ओकारः भवेत् ततः परम् इति शब्दः भवेत् तदेव प्रमुखांशः इति शब्दः विष्णो इति शब्दः भवेत् तदा शाकल्याचार्याणां मते शाकल्यः इति ऋषेः नाम इदानीं पाणिनेः अयं क्रमः सः पूर्वाचार्याणां स्मरणं करोति किमर्थम् आदरार्थं सः स्मरति इदानीं शाकल्याचार्याणां मते सम्बुद्धौ ओकारान् यदि सम्बुद्धौ नाम सम्बोधनप्रथमाविभक्तौ ओकारान्तः शब्दः विद्यते ततः परम् इति शब्दः विद्यते चेत् तदा शाकल्याचार्याणां मते अवैदिके इत्युक्ते लोके एव न तु छान्दसे वैदिकव्याकरणे न भवति छान्दसे इत्युक्ते छान्दसे न भवति अवैदिके इत्युक्ते लौकिकव्याकरणे किं भवति प्रगृह्यः भवति इदानीं विष्णो इति शाकल्याचार्याणां मते भवति इत्युक्ते मम मते न भवति इत्यर्थः पाणिनेः मते न भवति इत्यर्थः एवं शाकल्याचार्याणां मते भवति मम मते न भवति इत्युक्ते किं विकल्पद्वयं रूपद्वयम् अस्ति इति आगतम् इदानीं विष्णो इति इत्यत्र तदेव उदाहरणं विष्णो इति इत्यत्र ओकारान्तः अस्ति ओकारान्तः सम्बोधनप्रथमाभक्तौ अस्ति ततः परम् इति शब्दः अस्ति इदानीं सम्बुद्धौ शाकल्याचार्याणां मते अत्र विष्णो इति शब्दस्य प्रगृह्यसंज्ञा एवं विष्णो इति इत्यत्र सन्धिः न भवति प्रगृह्यसंज्ञा भवति चेत् इतप्रगृह्याचिन्त्यम् इत्यनेन प्रकृतिभावः प्रकृतिभावः अस्ति चेत् सन्धिः न भवति शाकल्याचार्याणां मते इदानीं पाणिनेः मतानुसारं सन्धिः भवति विष्णो इति इत्यत्र विष्णविति इति यचोयवायावः भवति कदाचित् विष्णविति इति यदि भवति चेत् विष्ण इति लोपशाकल्यस्य इति वा वकारलोपः लोपशाकल्यस्य इति सूत्रं तु किं भवति वैकल्पिकसूत्रं तदस्ति तदस्माभिः पूर्वमेव अधीतम् एवं रूपत्रयं विद्यते विष्णो इति प्रकृतिभावरूपं विष्णो इति इत्येव तिष्ठति विष्णौ इति विष्णविति इति अवादेशात्मकं रूपं तत् पाणिनेः मतं विष्ण इति यदा अवादेशः भवति तदा लोपशाकल्यस्य इति शाकल्याचार्याणां मते कदाचित् किं भवति वकारस्य लोपः भवति विष्ण इति एवं विष्णो इति इत्यत्र विष्ण इति विष्णविति इत्यादि रूपत्रयं भवितुमर्हति इत्येव तत्र सम्बुद्धौ शाकल्यस्येतावनार्षे इति सूत्रस्य अर्थः सम्यक् ज्ञातं वा एतत् अस्तु महान् प्रमोदः इदानीं अग्रिमकक्षायां वयं तत्र स्वरसन्देः समाप्तिं कुर्मः. चत्वारि सूत्राणि एव सन्ति, तत् समाप्तिं कुर्मः. पूर्वपदे यदि सन्देहः, हौ टु काण्टाक्ट्, पूर्वपाठे यदि फ्रेण्ड् इदानीं कदाचित् हल्सन्धि इत्युक्ते व्यञ्जनसन्धि आरभ्य तत्र नूतन टूल् अस्माभिः उपयुज्यते, तद्विषये मेल् प्रेषयामि. इत्युक्ते गो टु वेबिनार् इति एकं पेड् टूल् अस्ति, तद् केचन सहृदयाः केचन स्पान्सर् कृतवन्तः. अतः तत् टूल् उपयुज्य इदानीं व्योमसंस्कृतपाठशालायाः सर्वे पाठाः गोटु वेबिनार् मध्ये एव भवति. गोटु वेबिनार् मध्ये किञ्चित् सौकर्यं किम् अस्ति इत्युक्ते भवन्तः अपि भाषणं कर्तुम् अर्हन्ति. प्रायः अग्रिमपाठम् एकं तत्र एनि मीटिङ्ग् मध्ये कृत्वा ततः परं बुधवासरे, अग्रिमबुधवासरतः वयं गो टु वेबिनार् यूस् कुर्मः. तद्विषये एतद् यद् ईमेल् ऐ डि सर्वं रिजिस्टर् कृतं, पुनः रिजिस्टर् करणीयं चेत् तत् सर्वम् अहं वदामि किं किं कर्तव्यम् इति. एकं मेल् अपि प्रेषयामि, परन्तु तद् आनुकूल्यम् अधिकं भवति, यतोहि भवन्तः अपि भवत्यः अपि भाषणं कर्तुमर्हन्ति. रेस् हेण्ड् इति कृत्वा भाषणं कर्तुमर्हन्ति. किञ्चित् सम्यक् भवति, आडियो ब्रेक् न भवति इत्यादि तत्र साधकविषयाः सन्ति इति मया श्रुतम्. अवश्यं तदुपयुज्यैव ज्ञायते किम् इति. यदि तत्रापि क्लेशः अस्ति चेत् पुनः अत्रैव आगन्तुं शक्यते, परन्तु तत् पेड् टूल् अस्ति, तद् प्रायः सम्यक् भवेत् इत्येव सर्वे वदन्ति. सौम्या भगिनी अपि तद् उपयोगं करोति, तस्य उपयोगं करोति. अतः पश्यामः, तद्विषये अहं मेल् प्रेषयामि. अग्रिमशुक्रवासरे तु शुक्रवासरे कक्षा तु एनि मीटिङ्ग् मध्ये एव भवति. एवं सर्वे धन्यवादाः.